अथ नीतिशतकम्। दिक्कालाद्यनवच्छिन्ना अनन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय नमः शान्ताय तेजसे। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्। वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि। जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः नास्ति येषां यशः काये जरामरणजं भयम्। स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्। साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्। येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति। अधिगतपरमार्थान् पण्डितान् मावमंस्थाः तृणमिव लघुलक्ष्मीर्नैव तान् संवृणद्धि। अभिनवमधलेखाश्यामगण्डस्थलानाम् न भवति बिसतन्तुर्वारणं वारणानाम्। अम्भोजिनीवन विहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता नत्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः। जाड्यं धियो हरति सिञ्चति वाचि सत्यम्। मानोन्नतिं दिशति पापमपाकरोति। चेतः प्रसादयति दिक्षु तनोति कीर्तिम्। सत्सङ्गतिः कथय किं न करोति पुंसाम्। व्यालम्बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते। छेत्तुं वज्रमणिं शिरीशकुसुमप्रान्तेन सन्नह्यते। माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते। नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः। शक्यो वारयितुं जलेन हुतभुक्षत्रेण सूर्यातपो। नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ। व्याधिर्भेषदसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्। सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्ति औषधम्। केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः। न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः। वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते। क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणं। विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम्। विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्। विद्या राजसुपूज्यते न हि धनं विद्याविषीनः पशुः। क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद् देहिनां। ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम्। किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि। व्रीडाः चेत् किमु भूषणैः सुकविता यद्यस्ति राज्येन किम्। दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीति साधुजने नयोनृपजने विद्वज्जने चार्जवम् शौर्यं शत्रुजने क्षमा गुरुजने कांताजने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं नरञ्जयति प्रसह्य मणिमुद्धरेत् मकरवक्त्रदंष्ट्रान्तरात् समुद्रमपि संतरेत् प्रचलदूर्मिमालाकुलम् भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूर्खजनचित् तमाराधयेत् लभेतसि कतासु तैलमपि यत्नतः पीडयन् पिबेच्छमृगतृष्णिकासु सलिलं पिपासार्दितः कदाचिदपि पर्यटन् शविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् यदा किञ्चिद्ज्ञोऽहं द्विप इव मदान्धः समभवम् तदा सर्वज्ञोऽस्मि इति अभवत् अवलिप्तं मम मनः यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतं तदा मूर्खोऽस्मि इति ज्वर इव मदो मे व्यपगतः इति श्रीभर्तृहरेः नीतिशतकोद्धृतश्लोकाः